सीतापते विधि कदाचित कूर्मराज भण्डारितो नृहरितीर्थ मुनीन्द्रलब्ध आनन्दतीर्थ मुनिवंशयतीन्द्र पूज्य श्रीमूल राम भवतात् सुप्रभातम् सीतापते विधि कदाचित कूर्मराज भण्डारितो नृहरितीर्थ मुनीन्द्रलब्ध आनन्दतीर्थ मुनिवंशयतीन्द्र पूज्य श्रीमूल राम भवतात् सुप्रभातम् श्रीरामदूत हनुमान्यदुनाधदास श्रीभीमसेन वररौप्य पुरावतार श्रीव्यास हृत्प्रिय कमामित शुद्ध बुद्धे श्रीमद्वराज भवता तव सुप्रभातम् ब्रह्माज्ञयादिति कुले बहुदोषपूर्णे जातोऽपि भक्तिभरितो भुवनम् समस्तम् योऽपि हनो दिविशदाम्बरशङ्कुकर्णा श्रीराघवेन्द्र भवता तव सुप्रभातम् दैत्येश्वरम् हरिविरोधि हिरण्यकन्तम् योनिनयो हरिपदम् पितरम् स्वभक्त्या प्रह्लादमर्त्य हरिसम्भव कारणात्मन् श्रीराघवेन्द्र भवता तव सुप्रभातम् सोमान्वयोद्भव समस्त सुराजमौले भूभारसंहरणतोषित कृष्णमूर्ते बाह्लीकराज बहुराज सुधर्मधामन् श्रीराघवेन्द्र भवता तव सुप्रभातम् श्रीकृष्णदेव नृपतिः सकलम् स्वराज्यम् यस्मै स्वमप्यमलयार्पयदात्मभक्त्या श्रीव्यासराज विदुषाम्बर दिव्यमूर्ते श्रीराघवेन्द्र भवता तव सुप्रभातम् श्रीमूल राम पद पंकज लोल भृंग श्रीपूर्णबोधमत रम्य सुधाब्दि चंद्र श्री गौतमान्वय विभासक भव्य सूर्य श्रीराघवेन्द्र भवता तव सुप्रभातम् श्रीयान् समस्त निगमान् प्रविलोक्य सूक्ष्मे सद्भाटसङ्ग्रह विषेय दुवर्यवक्त्रे श्रीजैमिनिर्यमभिपूजयतेति मोदात् श्रीराघवेन्द्र भवता तव सुप्रभातम् स्पष्टार्थकैलमतिविस्तृत सूक्ष्मवाक्यैः सूत्रार्थभासकमवेक्ष्य च तन्त्रदीपम् व्यासो यशोभिरभिपूरयते सदायम् श्रीराघवेन्द्र भवता तव सुप्रभातम् स्वस्तीयशास्त्रगतमर्थमतोऽधिकम् च दृष्ट्या यदीयकृतिषु प्रणयाति नम्रा अर्चन्ति पाणिनि मुखाय मगाधबोध श्रीराघवेन्द्र भवता तव सुप्रभातम् रम्या सुधा परिमलोल्लसिता च कासे सच्चन्द्रिकापि शुशुभे विलसत्प्रकाश टीकाश्चले सुरमितैः स्फुटभावदीपैः श्रीराघवेन्द्र भवता तव सुप्रभातम् रम्यार्धरत्न परिभूषित सर्वगात्री सर्वाश्रुति स्वशिरसा सहितेन्दिरायम् आरोप्य रक्षति सदा निगमान्तराज्ये श्रीराघवेन्द्र भवता तव सुप्रभातम् श्रीवेङ्कटाय वरतिम् मणगोपिकाम् वा दम्पत्यनुत्तम तपः फलवैणिकाग्र्या दारिद्र्य दुःख भय भञ्जन पुण्यमूर्ते
श्रीराघवेन्द्र भवतात् तव सुप्रभातम् आनन्दतीर्थ जयतीर्थ कवीन्द्रतीर्थाः श्रीरामचन्द्र विभुदेन्द्र जयेन्द्रतीर्थाः आशीषतम् प्रददतः श्रुहयन्ति तस्मै श्रीराघवेन्द्र भवतात् तव सुप्रभातम् वादीन्द्रतीर्थ सुमतीन्द्र मुखास्तु वन्ति कर्मं दिनो गुरुगुणस्तव नैरुदारैः त्वां पश्यतानु गृहाण दयाद्रदृष्ट्या श्रीराघवेन्द्र भवतात् तव सुप्रभातम् गार्हस्थ्यमुत्तममयाचितलब्धभृत्या कष्टेन योनिरबहोह्वधुनाशितान् स्वान् सर्वेष्वलाभपरिपुष्टतनून् करोषि श्रीराघवेन्द्र भवतात् तव सुप्रभातम् श्रीमत्सुधीन्द्रवरयोगिसरस्वतीभ्याम् सम्प्रेरितो यदि वरद्भूर्बहुनाश्रमेण मन्त्रान् जपस्यनुदिनम् जगतीम् पुनासि श्रीराघवेन्द्र भवतात् तव सुप्रभातम् गङ्गादिपुण्यसरितः प्रणयाति बद्धाः सद्रत्नहेमजलकुम्भशतैरिदानीम् त्वाम् स्नापयन्ति विधिवत्यजयोगनिद्राम् श्रीराघवेन्द्र भवतात् तव सुप्रभातम् मन्दारपुष्पदधिकुङ्कुममुख्यवस्तु प्रत्यर्घमङ्गलकरम् वनिता मुनीनाम् नीराजनम् विदधतेऽद्यसुरत्नदीपैः श्रीराघवेन्द्र भवतात् तव सुप्रभातम् एते च कश्यपमुखा मुनयः श्रुतिश्रैः आशीर्वचोभिरधुनासि समर्पयन्ति लब्ध्वा श्रीशम्बरमदार्धिजनाय दद्याः श्रीराघवेन्द्र भवतात् तव सुप्रभातम् एते नृपाधनचयम् बहुवाहनस्थम् आनीय दर्शनकृते बहिरावसन्ति तान् पालयाद्य कृपया निरपेक्षयोगीन् श्रीराघवेन्द्र भवतात् तव सुप्रभातम् एषा समस्तजनता पररात्रकाले सीताधिकापि दधती वसनम् जलाद्रम् त्वाम् सेवतेऽध परिपूरय तत्तदिष्टम् श्रीराघवेन्द्र भवतात् तव सुप्रभातम् श्रीमूलराम जय दिग्विजयाक्षरामान् वैकुण्ठवासमधपूजयितुम् समेहि सर्वेऽप्यमी विधिकरा विहितात्मकृत्याः श्रीराघवेन्द्र भवतात् तव सुप्रभातम् धन्या इमे तव गुणस्तव नैरसङ्ख्यैः कण्ठोद्यतैर्दश दिशामशुभम् हरन्ति शृण्वन्ति देवसु जनानतकन्धरेण श्रीराघवेन्द्र भवतात् तव सुप्रभातम् छात्रा इमे परिमलादिनिबन्धपाठ्या भागावलोकनकृतः पठनाय सज्जाः उत्तिष्ठपाठय सुधा मधुरारवेण श्रीराघवेन्द्र भवतात् तव सुप्रभातम् शास्त्रेषु पूर्णदिशणा अपि पण्डितास्ते द्वारा सते स्वबहु संशययापनाय उत्तिष्ठछिन्दिहृदयस्थितसंशयांस्तान् श्रीराघवेन्द्र भवतात् तव सुप्रभातम् मन्त्रालये सुरुचिरे वरतुङ्गभद्रा तीरङ्गते सकलदैवतसन्निधाने वृन्दावने निवसते गुरवेऽर्पितोऽहम् श्रीराघवेन्द्र भवता तव सुप्रभातम्। संतान संपदति शुद्ध विरक्ति भक्ति विज्ञान मुक्ति मुख सर्व फल प्रदातः वाग्देह सौष्ठव कराति पवित्र मूर्ते श्रीराघवेन्द्र भवता तव सुप्रभातम्। चिंतामणि सुरतरुः सुरधेनु पूर्वा भक्तिष्टदान कुशले त्वयि नम्र नम्रा स्वीये पदे समभिषिच्य समर्चयन्ति श्रीराघवेन्द्र भवता तव सुप्रभातम्। नानत्ति भक्ति भरपूरित दास गोष्ठिम् विस्मृत्य देहमुत लोकमिमं स्मरन्ति त्वां स्मारयन्त्यतुल नारद गान गोष्ठिम् श्रीराघवेन्द्र भवता तव सुप्रभातम्। खञ्जोऽपि धावति जडः कवितां विधत्ते मूकोऽपि वक्ति बहु पश्यति सर्वमन्धः येदः शृणोति कृपया तव पश्य लीलाम् श्रीराघवेन्द्र भवता तव सुप्रभातम्। वृन्दावनेषु जगतीतलमध्ययेषु सर्वेषु सन्निहितया बहुरम्यमूर्त्या सर्वेष्टमाकलय सन्त्यज भूमिशय्या श्रीराघवेन्द्र भवता तव सुप्रभातम्। श्रीकृष्णभक्तिमतुलामवलम्ब्यमाने सर्वास्ति शक्तिरिति डिम्बिमघोषपूर्वम् यो भूबुधस्वमहिमातिशयप्रकाशैः श्रीराघवेन्द्र भवता तव सुप्रभातम्। त्वां त्वत्समं स्वसदृशं भवतः प्रभावम् दृष्ट्वा जहाति जनता खलु नास्तिकत्वम् आस्तिक्यवर्धन जगद्गुरुवर्य भूमान् श्रीराघवेन्द्र भवता तव सुप्रभातम्। ऐरावत प्रमुखदैवतवाहनानि सिद्धानि सर्वविबुधैर्यभियापितानि तेषु स्थितो महिगतो दिश भक्तकामान् श्रीराघवेन्द्र भवता तव सुप्रभातम्। एतेति भक्तिभरिताः सुजयेन्द्रतीर्था बृन्दावनोद्भव समात्रिशते महेऽस्मिन् अञ्चन्ति हेम कवचेन गुरो समेहि श्रीराघवेन्द्र भवता तव सुप्रभातम्। श्रीराघवेन्द्र भवता तव सुप्रभातम् तत्सुप्रभातपठनस्य सुखम् प्रभातम् भूया त्वदीय कृपया मम सुप्रभातम् त्वत्सुप्रभातकवनस्य च सुप्रभातम्। श्रीराघवेन्द्र भवता तव सुप्रभातम् तत्सुप्रभातपठनस्य सुखम् प्रभातम् भूया त्वदीय कृपया मम सुप्रभातम् त्वत्सुप्रभातकवनस्य च सुप्रभातम्। यो नो धृतः पापकोपा लक्ष्मीनारायणाभिधः अञ्जाम्यहमुपाध्यायः सुप्रभातेन तम् गुरुम्।
श्रीमदप्पणाचार्यकृत श्रीराघवेन्द्रस्तोत्रम्
श्रीपूर्णबोधगुरुतीर्थपयोधिपारा कामारिमाक्षविषमाक्षशिरःस्पृशन्ति पूर्वोत्तरामिततरङ्गचरत्सुहंसा देवाळिसेवितपराङ्घ्रिपयोजलग्ना जीवेश भेदगुणपूर्ति जगत्सु सत्त्वा नीचोच्च भावमुखनक्रगणैः समेता दुर्वाद्य जापति गिले गुरु राघवेन्द्र वा देवता सरिदमुं विमलीकरोतु श्री राघवेन्द्रः सकल प्रदाता स्वपादकञ्जद्वय भक्तिमध्यः अघाति संभेदन दृष्टि वज्रः क्षमा सुरेन्द्रो वतु मां सदायम् श्री राघवेन्द्रो हरिपादकञ्ज निषेवणाल्लब्ध समस्त सम्पत् देवस्वभावो दिविजद्रुमोऽयम् इष्टप्रदो मे सततम् स्वभूयात् भव्यस्वरूपो भवदुःखतूला सङ्घाग्निचर्यः सुखधैर्यशाली समस्तदुष्टग्रहनिग्रहेशो दुरत्ययोपप्लवसिन्धुसेतुः निरस्तदोषानिरवद्यवेषः प्रत्यर्थिमूकत्वनिदानभाषः विद्वत्परिज्ञेयमहाविशेषो वाग्वैखरी निर्जितभव्यशेषः सन्तानसम्पत्परिशुद्धभक्ति विज्ञानवाग्देहसुपाकवादीन् दत्त्वा शरीरोऽर्थ समस्तदोषान् हत्वा स नो व्याद्गुरुराघवेन्द्रः यत्पादोदकसञ्चयः सुरनदी मुख्यापदासादिता सङ्ख्यानुत्तमपुण्यसङ्घविलसत्प्रख्यातपुण्यावहः दुष्टापत्रयनाशनो भुवि महाबन्ध्यासुपुत्रप्रदो व्यङ्गस्वङ्गसमृद्धिदो ग्रहमहापापावहस्तम् श्रये यत्पादकञ्जरजसा परिभूषिताङ्गाः यत्पादपद्ममधुपायितमानसाये यत्पादपद्मपरिकीर्तनजीर्णवाचः तद्दर्शनम् दुरितकाननदावभूतम् सर्वतन्त्र स्वतन्त्रोऽसौ श्रीमध्वमतवर्धनः विजयीन्द्रकराब्जोऽर्थ सुधीन्द्रवरपुत्रकः श्रीराघवेन्द्रो यतिराट् गुरुर्मे स्याद्भयापहः ज्ञानभक्तिसुपुत्रायुः यशस्त्रीपुण्यवर्धनः प्रतिवादिजयस्वान्त भेदचिह्नादरो गुरुः सर्वविद्याप्रवीणोऽन्यो श्रीराघवेन्द्रान्न विद्यते अपरोक्षीकृतः श्रीशः समुपेक्षितभावजः अपेक्षितप्रदातान्यो श्रीराघवेन्द्रान्न विद्यते दयादाक्षिण्यवैराग्य वाक्पाटवमुखाङ्कितः शापानुग्रहशक्तोऽन्यो श्रीराघवेन्द्रान्न विद्यते अज्ञानविस्मृतिभ्रान्ति संशयापस्मृतिक्षयाः तन्द्राकम्पवचः कौन्थ्य मुखाये चेन्द्रियोद्भवाः दोषास्ते नाशमायान्ति राघवेन्द्रप्रसादतः श्रीराघवेन्द्राय नमः इत्यस्ताक्षरमन्त्रतः जपिताद्भावितान्नित्यम् इष्टार्ध्यास्युर्न संशयः हन्तु नः कायजान् दोषान् आत्मात्मीयसमुद्भवान् सर्वानपि पुमर्थांश्च ददातु गुरुरात्मवित् इति कालत्रये नित्यम् प्रार्थनाम् यः करोति सः इहामुत्राप्त सर्वेष्टो मोदतेनात्र संशयः अगम्यमहिमालोके राघवेन्द्रो महायशाः श्रीमध्वमतदुग्धाभि चन्द्रोऽवतु सदा नखः सर्वयात्राफलावाप्त्यै यथाशक्तिप्रदक्षिणम् करोमि तव सिद्धस्य बृन्दावनगतम् जलम् शिरसा धारयाम्यद्य सर्वतीर्थफलाप्तये सर्वाभीष्टार्थसिद्ध्यर्थम् नमस्कारम् करोम्यहम् तव सङ्कीर्तनम् वेदशास्त्रार्थज्ञानसिद्धये संसारे क्षयसागरे प्रकृतितो गाधे सदा दुस्तरे सर्वावद्य जलग्रहैरनुपमैः कामादिभङ्गाकुले नानाविभ्रमदुर्भ्रमे मितभयस्तोमादिफेनोत्कटे दुःखोत्कृष्टविशेषमुद्धर गुरो मावज्ञरूपम् सदा राघवेन्द्रगुरुस्तोत्रम् यः पठेत् भक्तिपूर्वकम् तस्य कुष्ठादिरोगाणाम् निवृत्तिस्त्वरया भवेत् अन्धोऽपि दिव्यदृष्टिः स्यात् येढमूकोऽपि वाक्पतिः पूर्णायुः पूर्णसम्पत्तिः स्तोत्रस्यास्य जपाद् भवेत् यः पिबेज्जलमेतेन स्तोत्रेणैवाभिमन्त्रितम् तस्य कुक्षिगता दोषाः सर्वे नश्यन्ति तत्क्षणात् यद्बृन्दावनमासाद्य पङ्गुः खञ्जोऽपि वाजनः स्तोत्रेणानेन यः कुर्यात् प्रदक्षिणनमस्कृतिः स जङ्घालो भवेदेव गुरुराजप्रसादतः सोमसूर्योपरागे च पुष्यार्कादिसमागमे योऽनुत्तममिदम् स्तोत्रम् अष्टोत्तरशतम् जपेत्